कृष्णा.
नेक्स्ट वी विल लर्न टेक्स्ट 3 फ्रॉम चैप्टर 4 ट्रांसेंडेंटल नॉलेज फ्रॉम भगवद गीता एज इट इज. प्लीज रिपीट आफ्टर मी 3 टाइम्स. स एवायम
स एवायम स एवायम स एवायम मया तेद्य
योग प्रोक्त
योग प्रोक्त योग प्रोक्त योग प्रोक्त पुरातनः
भक्तोऽसि मे
सखा चेति
रहस्यम्
हेतद् उत्तमम्.
Okay, now I'll recite each line. You repeat after me 3 times. Sa evayam maya tedya.
Sa evayam maya tedya. Sa evayam maya tedya. Sa evayam maya tedya.
Yoga prokta puratanaha.
Yoga prokta puratanaha. Yoga prokta puratanaha. योग प्रोक्त पुरातनः भक्तोऽसि मे सखा चेति रहस्यम् एतदुत्तमम्.
Now I'll recite the entire verse. Sa evayam maya tedya yoga prokta puratanah bhaktosi me sakha cheti rahasyam hetaduttamam.
Sa evayam maya tedya योग प्रोक्त पुरातनः भक्तोऽसि मे सखा चेति रहस्यमेतदुत्तमम्.
Translation: That very ancient science of the relationship with the Supreme is today told by me to you because you are my devotee as well as my friend and can therefore understand the transcendental mystery of this science.